उपयातानां सुदृशां कुसुमायुधबाणपात विवशानां अभिवांछितं विधातुं कृतमतिरपि ताः जगाथवाममिव गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मं धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् आकर्ण्य ते प्रतीपां वाणीं येणीदृशः परं दीनाः मामा करुणा सिन्धो परित्यज इत्यतिचिरं विलेपुस्ताः तासां रुदितैर्लभितैः करुणाकुलमानसो मुरारे त्वं ताभिः समं प्रवृत्तो यमुना पुलिनेषु काममभिरन्तुं चन्द्रकरस्यन्दलसत्सुन्दरयमुना तटान्तवीथीषु गोपीजनोत्तरीयैः आपादितसंस्तरे न्यषीदस्त्वं सुमधुरनर्मालपनैः करसङ्ग्रहणैश्च चुम्बनोल्लासैः गाढालिङ्गनसङ्गैः त्वमङ्गनालोकम् आकुली च कृशे वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासां तदपि विभो रसविवशस्वान्तानां कान्ता सुभ्रुवामदधाः कन्दलितघर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजं नन्दसुता त्वां त्रिजगत्सुन्दरम् उपगुह्य नन्दिता बालाः विरहेष्वङ्गारमयः शृङ्गारमयश्च सङ्गमे हि त्वं नितराम् अङ्गारमयः तत्र पुनः सङ्गमेऽपि चित्रमिदं राधातुङ्गपयोधर साधुपरीरम्भलोलुपात्मानम् आराधये भवन्तं पवनपुराधीश शमय सकलगदान् ओं तत्सदिति श्रीमन्नारायणीये षट्षष्टितमं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।